10 chapter verses 16 to 20. 16th one is Vaktum Arhasi Aseshena Divya. 16.
He
Atma Vibhutaya Yabhir Vibhutibhir Lokan Imams Tvam Vyapya Tishtasi Vaktum arhasya seshena Divya Atma Vibhutaya
Divya Atma Vibhutaya
Yabir Vibhuti Bir Lokan What the small children do, they always observe us. Whatever we do, they will do. If you seriously say these things, they will also say, oh, we should do that. Even they will become absorbed. What is our purpose? To get absorbed in Krishna, right? So in different ways. So this is one of the ways. So you know, they observe you. Whatever you do, they will also do.
Imams
Swam Vyapya Tishtasi Imams Swam Vyapya Tishtasi Vaktum arhasya seshena divyayatma vibhutaya yabir vibhuti bir lokani mam swam vyapya tishtasi
Vaktum arhasya seshena divyayatma vibhutaya yabir vibhuti bir lokani mam swam vyapya tishtasi
Vaktum arhasya seshena divya atma vibhutaya Arhasya seshena divya atma vibhutaya yabhir vibhuti bir lokan imam swam vyapya tishti
katam
vidyam
aham
yogins
Tvam sada
Kesu Keshu Chabaveshu Chintyosi Bhagavan Maya
Tvam Sada Parichintayam
Keshu Keshu Chabaveshu
Chintayosi Bhagavan Maya
Katam Vidyamaham Yogim Swam Sada Parichintayan Keshu Keshu Chabhaveshu Chintayosi Bhagavan Maya
Katam Vidyamaham Yogim Swam Sada Parichintayan Yeshu Keshu Chabaveshu Chintayosi Bhagavan Maya Pada Vidyamaham Yogim Swam Sada Parichintayam Yeshu
कथं विद्याम् अहं योगीं स्वं सदा परिचिन्तयाम् केषु केषु च भावेषु चिन्तयोसि भगवन् मया विस्तरे विस्तरे नात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् विस्तरेणात्मनो योगम् विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि नात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्य ह्यात्मा विभूतया प्रधान्यता कुरुश्रेष्ठा नास्ति अन्तो विस्तरस्य मे श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्ययात्मा विभूतया प्रधान्यता कुरु श्रेष्ठा नास्यन्तो विस्तरस्य मे श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्यात्मा विभूतया प्रधान्यता कुरु श्रेष्ठा नास्यन्तो विस्तरस्य मे
श्रीभगवानुवाच
हन्तते कथयिष्यामि दिव्यात्मा विभूतया प्रधान्यता कुरु श्रेष्ठा नास्य अन्तो विस्तरस्य मे श्रीभगवानुवाच अन्तते कथयिष्यामि दिव्य आत्मा विभूतया प्रधान्यता कुरु श्रेष्ठा नास्यन्तो विस्तरस्य मे श्रीभगवानुवाच अन्तते कथयिष्यामि दिव्य आत्मा विभूतया प्रधान्यता कुरु श्रेष्ठा नास्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूतशय स्थित अहम आदिस च मध्यम च भूतानां अंत एव हि सॉरी अंत एव च अंत एव च अहम आत्मा गुडाकेश अहम आदिश्च मध्यम च भूतानाम् अन्त एव च अहमात्मगुडाकेश सर्वभूतशय स्थित अहम् आदिश्च मध्यम च भूतानाम् अन्त एव च अहम् आदिश्च मध्यम च भूतानाम् अन्त एव च सर्वभूतशय स्थित अहम् आदिश्च मध्यम च भूतानाम् अन्त एव च अहम् आत्मा गुडाकेश वक्तुम् अर्हस्य शेषेण दिव्य आत्मा विभूतया याभिर्विभूतिभिर्लोकानि मां स्वां व्यापतिष्यसि कथं विद्यमहं योगीं स्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्तयोसि भगवन्मया विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्य आत्मा विभूतया प्रधान्यता कुरु श्रेष्ठा नस्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूतशय स्थिता अहम् आदिश्च मध्यं च भूतानामन्त एव च व्याप्यतिष्ठसि कथं विद्याम् अहं योगीं त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्तयोसि भगवन्मया विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् हरे कृष्णा 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 हरे 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 राम 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 प्लीज टेल मी इन डिटेल ऑफ योर डिवाइन ऑपुलेंसेस बाय विच यू परवेड ऑल दीज वर्ल्ड्स ओ कृष्णा ओ सुप्रीम मिस्टिक हाउ शैल आई कॉन्स्टेंटली थिंक ऑफ यू एंड हाउ शैल आई नो यू इन व्हाट वेरियस फॉर्म्स आर यू टू बी रिमेंबर्ड ओ सुप्रीम पर्सनैलिटी ऑफ गॉडहेड O Janardana, again, please describe in detail the mystic power of your opulences. I am never satiated in hearing about you, for the more I hear, the more I want to taste the nectar of your words. The Supreme Personality of Godhead said, Yes, I will tell you of my splendorous manifestations, but only of those which are prominent. O Arjuna, from my opulences is limitless. I am super soul Arjuna, seated in the hearts of all living entities. I am the beginning, the middle, and the end of all beings.